जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुम् दुरिताच्यग्निः ताभग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनि कर्मफलेषु जुष्टा दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वे बहुला न उर्वे भवातोकायतनयाय शय्यो विश्वानिनो दुर्गः जातवेदश्चिन्धुम् न नावा दुरितादिपर्षे अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्य विदा तनूना प्रदनाजितगुंसावानमुग्रमग्निगुम् भुवेम परमा सदस्तात् स नः परिषदति दुर्गाणि विश्वाक्षामद्येवो अधिदुरिताद्यग्निः प्रत्नोषि कमेड्यो अध्वरेषु सनाच्च होतानव्यस्य चत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमपि संवसानो वैष्णवेर्लोकमिहमादयन्त कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात्।